त्वाम् हिग्ने सदमित्समन्यवो देवासो देवमरतिन्येरिर इति कृत्वा अन्येरिरे अमर्त्यं यजतमर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसं सभ्रातरं वरुणमग्न आववृत्स्व देवां अच्छा सुमति यज्ञवनसं ज्येष्ठै यज्ञवनसं धृतावानमादित्यं चर्षणे धृतं राजानं चर्षणे धृतम् सखे सखायमभ्यावृत्स्वाशन्न चक्रं रथ्ये वरं ह्यास्मभ्यं दस्मरं ह्या अग्ने मृळीकं वरुणे स च विदो मरुत्स विश्वभानुषो तोकायतु जेषु शुजान शङ्क्रध्यस्मभ्यं तस्म शङ्क्रधि त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेणो वजासि सिष्ठाः यजिष्ठो वह्नितमश्यो शुचानो विश्वाद्वेषांसि प्रममग्ध्यस्मत् सत्वन्नो अग्ने भमो भवो तेने दिष्ठो अस्या उषसो व्यष्टौ अवयक्ष्मनो वरुणं रराणो वीहिमृळीकं सुहवो न एधि अस्य श्रेष्ठा सुभगस्य सन्द्रग्देवस्य चित्रतमामर्त्येष शुचि घृतन्न तप्तमज्ञाजास्पार्ह देवस्य मम्हने वधेनोः त्रिरस्यता परमा सन्ति सत्यास्पार्ह देवस्य जनिमान्यग्नेः अनन्ते अन्तः परिवेत आगाच्छति शुक्रो अर्योरोरुचानः स दूतो विश्वेदभिवष्टि सद्मा होता हिरण्यरथोरं सुजिह्वः रोहितश्वो वपुष्यो विभावा सदा रण्वः पितुमतेव संसद सचेतजन्मनुषो जग्नबन्धुः प्रदम् मह्यारशनजा नजन्ति सक्षेत्यस्य दुर्या सुसाधन् देवो मर्तस्य सधनित्वमाप स तो नो अग्न्यर्नजत प्रजानन्नच्छारत्नम् देवभक्तं यदस्य धिजाजद्विश्वे अमृता अगृण्वन्द्योष्पिता जनिता सत्यमुक्षन् स जाजत प्रथमः पस्त्या सुमहो बुद्धेरजसो अस्य योनौ अपादशीर्षा गुहमानो अन्ताजो जुवानो वृषभस्य नीडे प्रशर्ध आर्तप्रथमं विपञ्जाङ्घृतस्य योना वृषभस्य नीळे स्पारहो जवा वपुष्यो विभावा सप्त प्रियासो जनयन्त वृष्णे अस्माकमत्र पितरो मनुष्या अभिप्रसे दुर्रतमा शुषाणाः अश्मौ रजाः सुदुघा वव्रे अन्तर्दुस्रा आजन्नुषसो हुवानाः ते मर्मृज तद्रवांसो अत्र्यं तदेषा मन्ये अभितो विवोचन् पश्वयन्त्रासो अभिकारमर्चन् विदन्त ज्योतिश्च कृपन्त धीभिः ते गौ यता मनसा दृध्रमुग्धं गाजे मानं परिषन्तमद्रिम् दृह्णन्नरो वचसा दैव्ये नव्रजं गामन्तमुषिजो विवौरुः ते मन्वत प्रथमन्नामधेनोऽस्त्रिः सप्त मातुः परमाणि विन्दन् तज्जानतिरभ्यनोषतौरा आविर्भुवदरुणीर्यशसागोः नेषत्तमो दुधितं रोच तद्यौरुद्देव्या उषसो भानुरर्ता Asurya brahatas tishtadajra angrujomarte shabrajina japasyanna Adit pascha babadhana vyakhyanna didratnam dharayan tadya bhaktam Vishve vishva asudurya asudeva mitra dhije varuda satyamasto Achha avoteja shashachana magnim hota aram vishvabhara sanyajishtham Shuchyodho adranana gavamandho napotam parishiktam amshoha Vishve shamaditir yaknijanam vishve shamaditharmanushanam Agnir deva namava avranana sumraliko bhavadu jata vedaha